तथस्तु ध्याय श्री भगवान वाच अनाश्रित कर्म फलम् कार्यं कर्म करोति यः सन्यासी च योगी च न निरग्निर्न चाक्रियः यं सन्यासमिति प्राह योगं तं विद्धि पाण्डव न यसन्यास्तसंकल्पो योगी भवति कश्चन आरुरुक्षोर्मुनेर्योगं कर्मकारणमुच्यते योगारूढस्य तस्यैव समः कारणमुच्यते यदा हिनेन्द्रियार्थेषु न कर्मस्वनुषज्यते सर्वसंकल्पसन्न्यासी योगारूढस्तदुच्यते उद्धरेदात्मनात्मानम् आत्मानमवसादयेत् आत्मैव ह्यात्मनो बन्धु चात्मैव त्रिपुरात्मन बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् जितात्मनः प्रशान्तस्य कर्मात्मा समाहित शीतोष्णसुखदुःखेषु तथा मानापमानयो ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय योक्त इत्युच्यते योगी समदोषाश्मकाञ्चन सुहृन्मेत्रार्युदासीन मध्यस्थद्वेष्यबन्धुषु साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते योगी युञ्जीत सतत मात्मानं रहसि स्थित एकाकी यत चित्तात्मा निराशीरपरिग्रह श्रुतौ देशे प्रतिष्ठाप्य स्थिरुमासनमात्मना नात्योच्छ्रितं नातिनीचं शैलाजेन कुशोत्तरम् तत्रैकाग्नमनः कृत्वा यत् चेत्तेन्द्रियक्रिय उपवेश्यासने युञ्ज्या योगमात्मविशुद्धये समङ्काय शिरो ग्रीवम् धारयन्न चलं स्थिर सम्प्रेक्ष्य नासिकाग्रं स्वं विशस्तानवलोकय प्रशान्तात्मा विगतभिर्ब्रह्मचारी व्रते स्थित मनः संयम्यमचेत्तु युक्त आसीत् मात्पर युञ्जन्नेवं सदात्मानं योगी न नियत मानस शांति निर्वाण परमा मोत्संस्थमधिगच्छति नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन योक्ताहारविहारस्य योक्तचेष्टस्य कर्मसु योक्तस्वप्नावबोधस्य योगो भवति दुःखः यदा विनियतं चित्त आत्मन्येवावतिष्ठते निःस्पृह सर्वकामेभ्यो योक्त इत्युच्यते तदा यथा दीपो निवातस्थो लङ्घते सोपमा स्मृता योगिनो यत चेत्तस्य युञ्जतो योगमात्मना यत्रो परमते चेत्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्नात्मनि तोष्यति सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियं वेत्ति यत्र न चैवायं स्थितश्चरति तत्त्वतः यं लब्ध्वा च परं लाभं मान्यते नाधिकं तत् यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते तं विद्याद्दुःखसंयोग वियोगं योगसाङ्गितं स्वनिष्ठजेन योक्तव्यो योगो निर्विन्न चेतसा सङ्कल्पप्रभवान् कामास्त्यक्त्वा सर्वानशेषत मनसैवेन्द्रियग्रामं विनियाम्यसमन्तत शनैः शनैरुपरमे बुद्ध्याधिति गृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् यतो यतो निश्चरति मनश्चञ्चलमस्थिरं ततस्ततो नियमयैत आत्मन्येव वशं नयेत् प्रशान्तमनसंह्येनं योगिनं सुखमोत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकर्मषं योजन्नेवं सदात्मानं योगी विगतकर्मश सुखेन ब्रह्मसंस्पर्श अत्यन्तं सुखमश्नुते सर्वभूतस्तमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शना यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित सर्वथा वर्तमानोऽपि स योगी मयि वर्तते आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः अर्जुन उवाच योऽयं योगस्त्वया प्रोक्त साम्येन मधुसूदन एतस्याहं पश्यामि चञ्चलत्वस्थितिं स्थिरां चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढं तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् श्रीभुवनुवच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते असंयदात्मना यो पुष्प्राप इति मे मते वश्यात्मना तु यतता शक्यो वाप्तुमुपायत अर्जुन उवाच अयति श्रद्धयोपेतु योगाचलितमानस अप्राप्य योगसंसिद्धिं काङ्गतिं कृष्ण गच्छति कश्चिन्नो भयविभ्रष्ट सन्नाभ्रमेव नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणपति एतन्मे संशयं कृष्ण सेतुमहस्य शेषत वदन्यः संशयस्यास्य चित्तनह्युपपद्यते श्रीभगवानुवाच पार्थ नैवेह नामोत्र विनाशस्तस्य विद्यते न हि कल्याणकृत्कस्ते दुर्गतिं तत् गच्छति प्राप्य पुण्यकृतं लोकानुषित्वा शाश्वती समा शुचीनां श्रीमताङ्गेः योगभ्रष्टोऽभिजायते अथवा योगिनामेव कुले भवति धीमताम् एतद्धि दुर्लभतरं लोके जन्म यदि वृषां तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकां यत ते सततो भूय स संसिद्धौ कुरु नन्दन पूर्वाभ्यासेन तेनैव क्रियते ह्यवसो विश जिज्ञासुरवियोगस्य शब्दब्रह्माति वर्तते प्रयत्नाद्यतमानस्तु योगी संशोद्धकीर्दिश अनेक जन्म संसिद्धस्ततो जाति परांगते तपस्वीभ्योऽधिको योगी ज्ञानीभ्योऽपि मतोऽधिक कर्मेभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन योगिनामपि सर्वेषां मद्गतेनान्तरात्मना श्रद्धावान् भजते यो मां स मे योक्ततमो मत ॐ तत्सत् श्रीमद्भगवद्गीतासूपनिषत्सु विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमे नाम षष्ठः।